ॐ नमो भगवते वासुदेवाय। अथ नवमोऽध्यायः। मैत्रेय उवाच, त एवमुत्सन्नभया उरुक्रमे कृतावनामाः प्रययुस्त्रिविष्टपम्। सहस्रशीर्षापि ततो गरुत्मता मधोर्वनम् भृत्यतिदृक्षया गतः। स वैधिया योगविपाकतीव्रया हृत्पद्मकोशे स्फुरितम् तडित्प्रभम्। तिरोहितम् सहसैवोपलक्ष्य बहिःस्थितम् तदवस्थम् ददर्श। तद्दर्शनेनागतसाध्वसक्षिता ववन्दताङ्गम् विनमय्य दण्डवत्। दृग्भ्याम् प्रपश्यन् प्रपिबन्निवार्भकश्चुम्बन्निवास्येन भुजैरिवाश्लिषन् सतम् विवक्षन्तमतद्विदम् हरिर्ज्ञात्वास्य सर्वस्य च हृद्यवस्थितः। कृताञ्जलिम् ब्रह्ममयेन कम्बुनापस्पर्शबालम् कृपया कपोले। स वै तदैव प्रतिपादिताम् गिरम् दैवीम् परिज्ञातपरात्मनिर्णयः। तम् भक्तिभावोऽभ्यगृणादसत्वरम् परिषुतोरुश्रवसम् ध्रुवक्षितिः। ध्रुव उवाच, योऽन्तः प्रविश्य मम वाचमिमाम् प्रसुप्ताम् सञ्जीवयत्यखिलशक्तिधरस्वधाम्ना। अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम्। एकस्त्वमेव भगवन्निदमात्मशक्त्या मायाख्ययोरुगुणया महदाद्यशेषम्। सृष्ट्वानुवेश्य पुरुषस्तदसद्गुणेषु नानेव दारुषु विभावसु वद्विभासि। त्वद्दत्तया वयुनयेदमचष्ट विश्वम् सुप्तप्रबुद्धैव नाथ भवत्प्रपन्नः। तस्यापवर्ग्यशरणम् तव पादमूलम् विस्मर्यते कृतविदा कथमार्तबन्धो। नूनम् विमुष्टमतयस्तव मायया ते ये त्वाम् धवाप्यय विमोक्षणमन्यहेतोः। अर्चन्ति कल्पकतरुम् कुणपोपभोग्यमिच्छन्ति यत्स्पर्शजम् निरयेऽपि नृणाम्। या निर्वृत्तिस्तनुभृताम् तव पादपद्मध्यानाद्भवज्जनकथा श्रवणेन वा स्यात्। सा ब्रह्मणि स्वमहिमन्यपि नाथमाभूत् किम् त्वन्तकासि लुलितात् पतताम् विमानात्। भक्तिम् मुहुः प्रवहताम् त्वयि मे प्रसङ्गो भूयादनम् तमहतामलाशयानाम्। येनाञ्जसोल्बणमुरुव्यसनम् भवाब्धिम् नेष्ये भवद्गुणकथामृतपानमत्तः। तेन स्मरन्त्यतितराम् प्रियमीशमर्त्यम् ये चान्वदः सुतसुहृद्गृहवित्तदाराः। ये त्वब्जनाभ भवदीयपदारविन्द सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः। तिर्यङ्नगद्विजसरी श्रीपदेवदैत्य मर्त्यादिभिः परिचितम् सदसद्विशेषम्। रूपम् स्थविष्ठमजते महदाद्यनेकम् नातः परम् परमवेद्मि न यत्र वादः। कल्पान्त एतदखिलम् जठरेण गृह्णन् शेते पुमान् स्वदृगनन्तसखस्तदङ्के। यन्नापि सिन्धुरुह काञ्चन लोकपद्म गर्भे द्युमान् भगवते प्रणतोऽस्मि तस्मै। त्वम् नित्यमुक्त परिशुद्ध विबुद्ध आत्मा कूटस्थादिपुरुषो भगवान् स्त्र्यधीशः। यद्बुद्ध्यवस्थितिमखण्डितया स्वदृष्ट्या द्रष्टा स्थितावधिमखो व्यतिरिक्त आस्ये। यस्मिन् विरुद्धगतयो यनिशम् पतन्ति विद्यादयो विविधशक्तयानुपूर्व्यात्। तद्ब्रह्म विश्वभवमेकमनन्तमाद्यमानन्दमात्रमविकारमहम् प्रपद्ये। सत्याशिषो हि भगवन्स्तव पादपद्ममाशीस्तथानुभजतः पुरुषार्थमूर्तेः। अप्येवमर्य भगवान् परिपाति दीनान् वाश्रेव वत्सकमनुग्रहकातरोऽस्मान्। मैत्रेय उवाच, अथाभिष्टुत एवम् वै सत्सङ्कल्पेन धीमता। भृत्यानुरक्तो भगवान् प्रतिनन्द्येदमब्रवीत्। श्रीभगवानुवाच, वेदाहम् ते व्यवसितम् हृदिराजन्यबालक, तत्प्रयच्छामि भद्रम् ते दुरापमपि सुव्रत। नान्यैरधिष्ठितम् भद्र यद्भ्राजिष्णु ध्रुवक्षिति, यत्र ग्रहर्क्षताराणाम् ज्योतिषाम् चक्रमाहितम्। मेढ्याम् गोचक्रवत्स्थास्नु परस्तात्कल्पवासिनाम्। धर्मोऽग्निः कश्यप शुक्रो मुनयो एव नौकसः। चरन्ति दक्षिणीकृत्य भ्रमन्तो यत्सतारकाः। प्रस्थिते तु वनम् पित्रा दत्त्वागाम् धर्मसंशयः। षट्त्रिंशद्वर्षसाहस्रम् रक्षिता व्याहतेन्द्रियः। त्वद्भ्रातर्युत्तमे नष्टे मृगयायाम् तु तन्मनाः। अन्वेषन्ति वनम् माता दावाग्निम् सा प्रवेक्ष्यति। इष्ट्वा माम् यज्ञहृदयम् यज्ञैः पुष्कलदक्षिणैः। भुक्त्वा तेहाशिष सत्यान्ते माम् संस्मरिष्यसि। ततो गन्तासि मत्स्थानम् सर्वलोकनमस्कृतम्। उपरिष्टादृशिभ्यस्त्वम् यतो नावर्तते गतः। मैत्रेय उवाच इत्यर्चितः स भगवान् अतिदिश्यात्मनः पदम् बालस्य पश्यतो धाम स्वमगाद् गरुडध्वजः। सोऽपि सङ्कल्पजम् विष्णोः पादसेवोपसादितम् प्राप्य सङ्कल्पनिर्वाणम् नातिप्रीतोऽभ्यगात् पुरम्। विदुर उवाच सुदुर्लभम् यत् परमम् पदम् हरेर्मायाविनस्तच्चरणार्चनार्जितम् लब्ध्वाप्यसिद्धार्थमिवैक जन्मना कथम् स्वमात्मानममन्यतार्थवित्। मैत्रेय उवाच मातुः सपत्न्या वाग्बाणैर्हृदि विद्धस्तुतान् स्मरन् नैच्छन्मुक्तिपतेर्मुक्तिम् तस्मात्चापमुपेयिवान्। ध्रुव उवाच समाधिना नैकभवेन यत्पदम् विदूषनन्दादय ऊर्ध्वरे तसः मातैरहम् षड्भिरमुष्य पादयोश्छायामुपेत्यापगतः पृथङ् मतिः। अहो बत ममानात्म्यम् मन्दभाग्यस्य पश्यत भवच्छिदः पादमूलम् गत्वा याचे यदन्तवत् मतिर्विदूषिता देवैः पतद्भिरसहिष्णुभिः। यो नारदवचस्तथ्यम् नाग्राहिशमसत्तमः दैवीम् मायामुपाश्रित्य प्रसुप्त इव भिन्नदृक् तप्ये द्वितीयेऽप्यसति भ्रातृभ्रातृव्यहरिद्रुजा। मयैतत्प्रार्थितम् व्यर्थम् चिकित्सेव गतायुषि प्रसाद्य जगदात्मानम् तपसा दुष्प्रसादनम्। भवच्छिदमयाचेऽहम् भवम् भाग्यविवर्जितः स्वाराज्यम् यच्छतो मौढ्यान्मानो मे भिक्षितो बत ईश्वरात्क्षीणपुण्येन फलीकारा निवाधनः। मैत्रेय उवाच न वै मुकुन्दस्य पदारविन्दयो रजोजुषस्तात भवादृशा जनाः वाञ्छन्ति तद्दास्यमृतेऽर्थमात्मनो यदृच्छया लब्धमनः समृद्धयः। आकर्ण्यात्मजमायान्तम् सम्परेत्य यथा गतम् राजान श्रद्धधे भद्रमभद्रस्य कुतो मम। श्रद्धाय वाक्यम् देवर्षेर्हर्षवेगेन धर्षितः वार्ता हर्तुरतिप्रीतो हरम् प्रादान् महाधनम्। सदश्वम् रथमारुह्य कार्तस्वर परिष्कृतम् ब्राह्मणैः कुलवृद्धैश्च पर्यस्तो मात्यबन्धुभिः शङ्खदुन्दुभिनादेन ब्रह्मघोषेण वेणुभिः निश्चक्रामपुरात् पूर्णमात्मजा भीक्षणोत्सुकः। सुनीति सुरुचिश्चास्य महिष्यौ रुक्मभूषिते आरुह्य शिबिकाम् सार्धमुत्तमेनाभिजग्मतुः। तम् दृष्टोपमनाभ्यास आयान्तम् तरसारथात् अवरुह्य नृपस्तूर्णमासाद्य प्रेम विह्वलः। परिरेभेऽङ्गजम् दोर्भ्याम् दीर्घोत्कण्ठमनाश्वसन् विश्वक्सेनाङ्घ्रिसंस्पर्श हताशेषाघबन्धनम् अथा जिग्रन्मुहुर्मूर्ध्नि शीतैर्नयनवारिभिः। स्नापयामास तनयम् जातोद्दाम मनोरथः अभिवन्द्य पितुः पादावाशीर्भिश्चाभिमन्त्रितः। न नाम मातरौ शीर्ष्णा सत्कृतः सज्जनाग्रणीः। सुरुचिस्तम् समुत्थाप्य पादावनतमर्भकम् परिष्वज्याः जीवेति बाष्पगद्गदया गिरा यस्य प्रसन्नो भगवान् गुणैर्मैत्र्यादिभिर्हरिः। तस्मै नमन्ति भूतानि निम्नमापैव स्वयम् उत्तमश्च ध्रुवश्चोभावन्योन्यम् प्रेम विह्वलौ अङ्गसङ्गादुत्पुलका वस्त्रौघम् मुहुरूहतुः। सुनीतिरस्य जननी प्राणेभ्योऽपि प्रियम् सुतम् उपगुह्य जहावाधिम् तदङ्गस्पर्शनिर्वृता पयस्तनाभ्याम् शुश्राव नेत्रजैः सलिलैः शिवैः। तदापि शिच्यमानाभ्याम् वीरवीरसुवो मुहुः ताम् शशंसुर्जनाराज्ञीम् दृष्ट्या ते पुत्र आर्तिहा प्रतिलब्धश्चिरम् नष्टो रक्षिता मण्डलम् भुवः। अभ्यर्चितस्त्वया नूनम् भगवान् प्रणतार्तिहा यदनुध्यायिनो धीरा मृत्युम् जिज्ञोसु दुर्जयम् लाल्यमानम् जनैरेवम् ध्रुवम् सभ्रातरम् नृपः आरोप्यकरिणीम् हृष्टः स्तूयमानो विशत्पुरम् तत्र तत्रोपसङ्कृप्तैर्लसन्मकरतोरणैः सवृन्दैकदलीस्तम्भैः पूगपोतैश्च तद्विधैः चूतपल्लववासहस्रङ् मुक्तादामविलम्बिभिः उपस्कृतम् प्रतिद्वारमपाम् कुम्भैः सदीपकैः प्राकारैर्गोपुरागारैः सातकुम्भपरिच्छदैः सर्वतोऽलङ्कृतम् श्रीमद्विमानशिखरद्युभिः मृष्टचत्वररथ्याट्टमार्गम् चन्दनचर्चितम् राजाक्षतैः पुष्पफलैस्तण्डुलैर्बलिभिर्युतम् ध्रुवाय पथि दृष्टाय तत्र तत्र पुरस्त्रियः सिद्धार्थाक्षतदद्यम्बु दूर्वा पुष्पफलानि च उपजर्रुः प्रयुञ्जाना वात्सल्यादाशिषस्सतीः। शृण्वंस्तद्वल्गुगीतानि प्राविशद्भवनम् पितुः महामणिव्रातमये स तस्मिन् भवनोत्तमे लालितो नितराम पित्रा न्यवसत दिविदेववत् पयफेन निभा शय्या दांता रुक्म परिच्छदा आसनानि महार्हाणि यत्र रौक्मा उपस्करा यत्र स्फटिक गुड्येषु महामारगतेषु च मणिप्रदीपा आभान्ति दृढना रत्न संयुताः उद्यानानि च रम्याणि विचित्रैरमरद्रुमैः कूजद्विहङ्ग मिथुनैर्गायन्मत्तमथुव्रतैः वाप्यो वैदूर्यसोपानाः पद्मोत्पलकुमुद्वतीः हंसकारण्डवकुलैर्जुष्टाश्चक्राह्वसारसैः उत्तानपादो राजर्षिः प्रभावं तनयस्य तम् श्रुत्वा दृष्ट्वाद्भुततमं प्रपेदे विस्मयं परम् वीक्ष्योठवयसं तं च प्रकृतीनां च सम्मतम् अनुरक्तप्रजं राजा ध्रुवं चक्रे भुवः पतिम् आत्मानं च प्रवयसमाकलय्य विशां पतिः वनं विरक्तः प्रातिष्ठत् विमृशन्नात्मनो गतिम् ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे ध्रुवराज्याभिषेकवर्णनं नाम नवमोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।